सर्वेभ्यो नमस्कारः. सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे सप्तविंशः भागः, एप्रिल् मासस्य चतुर्थः दिनाङ्कः. येनाक्षरसमानं नायमधिगम्यमहेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. उकारान्ताः पुल्लिङ्गाः आरभ्यन्ते. आल्रेडि सीन् अकारान्तात् इकारान्ताः, अकारान्ताः आकारान्ताः, इकारान्ताः इकारान्ताश्च अधीताः. इतः परम् उकारान्ताः पुल्लिङ्गाः, तेषां कथं रूपसिद्धिः, कथं प्रक्रिया इति द्रष्टव्यम्. यु शुड् आल्वेज् रिमेम्बर् वेर् एवर् वि गो इन् व्याकरण, वाट् एवर् हेपन्स् टु उकार इस् जनरलि प्यारलल् टु वाट् एवर् हेपन्स् टु इकार. सो इफ् यु हव् संथिङ्ग् फार् उकार, द सेम् थिङ्ग् जनरलि गेट्स् रिपीटेड् फार् उकार आल्सो, बिकास् बोत् आफ् देम् आर् इन्क्लूडेड् इन् दट् इक्. जनरलि एनी कार्य टोल्ड् if it is there for ikara, it will also tend to be the same for ukara. Of course it's a corresponding thing. If there is a yand for e which is ya, there would be yand for u which would be va. If there is an ayadesha here, there would be an avadesha there, so on. So generally something, most of the things happen correspondingly, right? Ateva uchyate adau shambhur harivate. Shambhu shabdah ukaranta pullingeshu sadharana shabdah shambhuho guruhu kimapi bhavitum arhati. हरिवत् तस्य सर्वाणि रूपाणि सर्वाश्च प्रक्रियाः हरिशब्दवत् भवन्ति इत्यर्थः. हरिशब्दवत् इत्युक्ते कोऽर्थः? हरिशब्दं स्मरन्ति वा इति एकवारं पश्यामः. सो गोयिङ्ग् बेक् टु द वेरि बिगिनिङ्ग्, हौ डु वि स्टार्ट् एनी वर्ड्? शम्भु प्रातिपदिकत्वम् अपेक्षितम् आदौ. Any words to apply any of the supratyaya, there has to be a pratiparika. So kritta dhita samasascha iti sutrena shambhu shabdasya pratiparika samya. So it can either be arthavaradhatara pratyaya pratiparika athava kritta dhita samasascha. Itta prayena kritta dhita samasascha ittyeva pratiparika samya bhavati. Prayena sarve shabdaha kridantaha iti karanena, kridantaha kridantaha अनिष्पन्नानां शब्दानां सङ्ख्या अत्यन्तं न्यूना, अतः प्रायेण अनेनैव सूत्रेण प्रातिपदिकसंज्ञा भवति. शम्भु इत्यस्य प्रातिपदिकसंज्ञायाम् इदानीं प्रथमैकवचने विवक्ष्यते सुप्रत्ययः करणीयः. सो वाट् आर् द अधिकार स्विच् गो या प्रातिपदिकात्, ण्यन्तात् आवन्तात् प्रातिपदिकाच्च स्वादयः प्रत्ययाः भवन्ति. इत्येकः अधिकारः प्रत्ययः इत्यधिकारः. तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये ये ये विहिताः ते सर्वे प्रत्यय इति संज्ञां प्राप्नुवन्ति. परश्च ते सर्वे परतः भवन्ति इत्यर्थः. अतः अत्र कोऽर्थः? प्रातिपदिकात् शम्भु इत्यस्मात् प्रातिपदिकात् परतः सु औजस् इत्यादयः प्रत्ययाः भवन्ति इत्यर्थः. अत्र तु प्रथमाविभक्तौ एकवचने विवक्ष्यते. सु इति प्रत्ययः, प्रथमः प्रत्ययः क्रियते शम्भु सु. सु इत्यत्र उकारस्य आनुनासिक्यं विद्यते. तेन उपदेशे अजनुनासिक इति, उपदेशे अनुनासिकः अस्य इत्सम्यः स्यात्. सो एनी अच् विच् हेपन्स् टु बि अनुनासिक विल् गेट् द इत्सम्य इति सूत्र. इत्सम्यायां सत्यां तस्य लोपः इत्यनेन तस्य लोपे शम्भु सु सकारशिष्यते. सकारस्य ससजुषोरुः इत्यनेन ऋत्वं पदान्तस्य सस्य सदृशब्दस्य च रुः स्यात् इत्युच्यते. अत्र शम्भूस् इत्यस्य वस्तुतः सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा विद्यते. सिन्स् दिस् इस् समुदाय विच् एण्ड्स् इन् अ सुप्रत्यय, दिस् विल् बि काल्ड् अ पद. पदत्वात् ससजुषोरुः इत्यनेन ऋत्वे रु इत्यत्रापि रेफ एव शिष्यते. द उकार गेट्स् डिलीटेड् बै तस्य लोपः. Since it has its samya by upadesha janavasthaita, shambhu r, khravasanayo nusarchaniyaha, ಉಚ್ಚನೆಯ ರೇಖಸ್ಯ ಸ್ಥಾನ ಹೆಸರ್ಗೆ ಶಂಭು. ಸೊ ಆಕ್ಚುಲಿ ಈ ಬಂದು ದರ್ ಆರ್ ಓನ್ಲಿ ಟೂ ಸ್ಟೆಪ್ಸ್, ರುತ್ವಂ ವಿಸರ್ಗ. ಬಟ್ ಸ್ಟಿಲ್ ದರ್ ಆರ್ ಸೋ ಮೆನಿ ಸೂತ್ರಸ್, ದಿಸ್ ಆಲ್ಸೋ ಡಸ್ ನಾಟ್ ಕವರ್ ಆಲ್ ದ ಸೂತ್ರಸ್ ಇನ್ ವಾಟ್ ಫಾರ್ ಪ್ರಥಮ ವಿಭಕ್ತಿ. ಫಾರ್ ವಿಭಕ್ತಿ ಯು ಹ್ಯಾವ್ ಅ ಸೂತ್ರ, ಫಾರ್ ಪ್ರಥಮ ಯು ಹ್ಯಾವ್, ಫಾರ್ ಏಕವಚನ ಯು ಹ್ಯಾವ್ ಅ ಸೂತ್ರ, ಆರ್ ಅದರ ಪರಿಭಾಷಾ ಟು ಡಿಸೈಡ್ ಆಲ್ ದೋಸ್ ಐನ್ ಯು ಹ್ಯಾವ್ ದ ಪದಸಮ್ಯ. ಸಿ ಸೊ ಇವನ್ ಫಾರ್ ವಾಟ್ ವಿ ಸೀಮ್ ಅ ವೆರಿ ಸಿಂಪಲ್ ಪ್ರಕ್ರಿಯ, ದರ್ ಸೋ ಮೆನಿ ಬ್ಯಾಕ್ಗ್ರೌಂಡ್ ಸೂತ್ರ ವಿಚ್ ಆರ್ ರಿಕ್ವೈರ್ಡ್. ಒನ್ಸ್ ಯು ಹ್ಯಾವ್ ಆಲ್ ದೋಸ್ ಇನ್ ಮೈಂಡ್, ಯು ಕ್ಯಾನ್ ಸಿಂಪ್ಲಿ ಸೇ ಶಂಭು ಸುಪ್ರತಯ ರುತ್ವಂ ವಿಸರ್ಗ ಶಂಭು. ಟ್ರೂ, ದಟ್ ಇಸ್ ಆಲ್ ದರ್ ಇಸ್, ಬಟ್ ಆಲ್ ದ ಬ್ಯಾಕ್ಗ್ರೌಂಡ್ ವರ್ಕ್ ಪರಿಭಾಷಾಸ್ ಆರ್ ಆಲ್ಸೋ ವೆರಿ ವೆರಿ ಇಂಪಾರ್ಟೆಂಟ್. ಪ್ರಥಮ ವಿಭಕ್ತ ದಿವಸನೆ ಔ ಪ್ರತ್ಯಯ ಸು ಔ ಜಸ್ ಶಂಭು ಔ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಭವತಿ, ವಾಟ್ ವಿಲ್ ಹ್ಯಾಪನ್. ರಿಮೆಂಬರ್ಸ್ ಫ್ರಮ್ ಹರಿಶಬ್ದಸ್ಯ ಪ್ರಕ್ರಿಯಾ ಕಿಂ ಭವತಿ. Yes, yes, yes. ಪ್ರಥಮಯೋಗ ಪೂರ್ಣ ಸಮರ್ಣ ಶಂಭು ಔ ಇತಿಸ್ತತೆ ಆದೌ ಇಕೋಯಣಸಿ ಇತಿ ವೃತ್ತಿ ಪ್ರಾಪ್ನೋತಿ ಇದು ತದ್ ಬಾಧಿತ್ವ ಪ್ರಥಮಯೋಗ ಪೂರ್ಣ ಸಮರ್ಣ ಇತ್ಯನೇನ ಪೂರ್ಣ ಸಮರ್ಣ ದೀರ್ಘ. ಸೊ ಕಃ ಅರ್ಥ, ಅತಃ ಪ್ರಥಮದ್ವಿತೀಯೋಗ ಅಚಿಪರತಃ. ಪ್ರಥಮ ವಿಭಕ್ತೆ ದ್ವಿತೀಯ ವಿಭಕ್ತೆಶ್ಚ ಅಕಃ ಅಕ್ ವರ್ಣಸ್ಯ ಅ ಇ ಉ ಋ ಇತ್ಯೇತೇಷಾಂ ಅಚಿಪರತಃ ಅಜ್ವರ್ಣೆ ಪರತಃ ಪೂರ್ವಸವರ್ಣದೀರ್ಘ. ಪೂರ್ವ ನಾಮ ಉಕಾರ, ಉಕಾರಸ್ಯ ಸವರ್ಣದೀರ್ಘ ನಾಮ ಊಕಾರ ಏಕಾದೇಶೋ ಭವತಿ ಏಕಪೂರ್ವಪರಯೋಃ ಇತ್ಯಧಿಕಾರೆ. ತೇನ ಶಂಭು ವಿಣಂಬಾಧಿತ್ವ ಪ್ರಥಮಯೋ ಪೂರ್ವಸವರ್ಣ ಇತ್ಯನೇನ ಪೂರ್ವಸವರ್ಣದೀರ್ಘೆ ಶಂಭು ಶಂಭು. ಪ್ರಥಮ ವಿಭಕ್ತೋ ಬಹುವಚನೆ ಶಂಭು ಜಸ್ ಪ್ರತ್ಯಯ ಜಸ್ ಪ್ರತ್ಯಯೇ ಜಸಿ ಚ ಇತಿ ಗುಣಃ ಪೂರ್ವಮೇವ ಉಕ್ತವಂತಃ. ಸೊ ಜಸ್ ಇತ್ಯತ್ರ ಅಸ್ ಜಕಾರಸ್ಯ ಚುಟು ಇತ್ಯನೇನ ಸಮ್ಯ ತಸ್ಯ ಲೋಪಃ ಇತ್ಯನೇನ ಲೋಪಃ. ವಸ್ತುತಃ ಸಕಾರಸ್ಯಾಪಿ ಇತ್ಸಮ್ಯ ಭವಿತುಮರ್ಹತಿ. ಹಲಂತ್ಯಂ ಇತ್ಯನೇನ ಸಕಾರಸ್ಯ ಇತ್ಸಮ್ಯಾಯಾಂ ಪ್ರಾಪ್ತಾಯಾಂ ನ ವಿಭಕ್ತೌ ತುಸ್ವಾಹ. ವಿಭಕ್ತೌ ತವರ್ಗ ಸಕಾರ ಮಕಾರಾಣಾಂ ಸಮ್ಯ ನ ಭವತಿ ಇತ್ಯುಕ್ತತ್ವಾತ್ ಸಕಾರಸ್ಯ ಇತ್ಸಮ್ಯ ನಾಸ್ತಿ. ಅಸ್ ಇತಿ ಸ್ಥಿತೆ ಜಸಿ ಚ ಇತ್ಯನೇನ ಗುಣಃ. ಜಸಿ ಪರತಃ ಹ್ರಸ್ವಸ್ಯ ಉಕಾರಸ್ಯ ಸ್ಥಾನೇ ಗುಣಃ. ಉಕಾರಸ್ಯ ಗುಣಃ ನಾಮ ಓಕಾರಃ. ಸೊ ಯು ಸೀ ದ ಪ್ಯಾರಲಲ್ ಹಿಯರ್, ದೇರ್ ವಿ ಹ್ಯಾಡ್ ಇಕಾರ, ದ ಗುಣ ಫಾರ್ ಇಕಾರ ವಾಸ್ ಎ. ವಿ ಹ್ಯಾಡ್ ಹರೇ ಅಸ್ ಹರಯಸ್ ಅಯಾದೇಶ. ಅತ್ರ ಉಕಾರಸ್ಯ ಗುಣೆ ಓಕಾರಃ ಶಂಭೋ ಅಸ್. ಸೊ ಆಲ್ ದಿಸ್ ಶುಡ್ ಬಿ ಅಸ್ಯೂಮ್. ವೆನ್ ದೇ ಸೇ ಶಂಭುರ್ ಹರಿವತ್, ಇಟ್ ಡಸ್ ನಾಟ್ ಸೇ, ಇಟ್ ಡಸ್ ನಾಟ್ ಮೀನ್ ಯು ಕ್ಯಾನ್ ಡೂ ಎನ್ ಏಕಾರ ಹಿಯರ್ ಆಲ್ಸೋ. ಸೊ ದಟ್ ಕಾಮನ್ ಸೆನ್ಸ್ ಶುಡ್ ಪ್ರಿವೇಲ್ ವೆನ್ ಹಿ ಸೇಸ್ ದಿಸ್ ಗೋಸ್ ಲೈಕ್ ದಟ್. ಶಂಭೋ ಅಸ್ ಏಚೋಯವಾಯಾವಹ ಇತ್ಯನೇನ ಅವಾದೇಶ ಶಂಭವಸ್ ಋತ್ವಂ ವಿಸರ್ಗ ಶಂಭವ. ಶಂಭು ಶಂಭು ಶಂಭವ ಹೇ ಶಂಭು ಸು ಅತ್ರ ಕಿಂ ಭವತಿ. ಎನಿಬಡಿ ಸಂಬೋಧನ ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಇತ್ಯನೇನ ಉಕಾರಸ್ಯ ಸ್ಥಾನೇ ಗುಣಃ. ಸೇಮ್ ಗುಣ ಆಕ್ಚುಲಿ ಗೋಸ್ಟು ಜಸಿ ಚ. ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಜಸಿ ಚ. ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಸ್ಯಾತ್ ಸಂಬುದ್ಧೌ ಜಸಿ ಪರೇಪಿ ಗುಣೋ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಇತ್ಯನೇನ ಗುಣೇ ಹೇ ಶಂಭೋ ಸ್ ಇತಿ ಭವತಿ. ಓಕಾರೇ ಕೃತೆ एङ् ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धेः लोपः. एङन्तात् ह्रस्वान्तात् चाङ्गात् हल् लुप्यते सम्बुद्धेश्चेत्. सो अयम् एङन्तः ओकारान्तः तस्य एङ्त्वात् एङ् ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धिलोपः. So why do we not delete the sakara at this stage? Adaveva. He shampusu iskute. Hraswattam asti. Heen hraswat sambuddhe. Hraswanta tangat sambuddhi lopaha. Kutona kriyate. Why should we, why can we not apply heen hraswat sambuddhe earlier? When it is he shampusu, why can't we just directly delete the sakara? Hema. Varnadaryam first. Varnadaryam Baliyaha. Okay. Yeah, it is true. Logically true. But that was not the reason. I mean, yeah. Why should... otherwise... But still we can, even after the Sukha Sakara is deleted, we can apply Pratyaya Lope Pratyaya Lakshanam and do the Guna. Not halyam, we were talking about yeng hraswat sambuddhe. Te hraswat sambuddhe hai lopaha vetumahi. You can use yeng hraswat sambuddhe and delete the sakara earlier. And the guna will still happen because we have pratyaya lope pratyaya lakshanam. Even after the pratyaya has been deleted, we can use the thanivad bhava and say, assume your pratyaya is still there and do guna. Okay. So the reasoning which Hema gave was varna dangam baliyaha is a paribhasha correct. But we don't need to go to that paribhasha. The reasoning is very obvious here in this case. What's the question? Should we do yeng hraswat sambuddhe or should we do rasvasya gunaha? How do we decide whenever there is a clash between sutras? Hello, Panju. So if Paraspa does not apply, what is the next thing we go? I'm trying to get what the speech does. Taratvat. So that's what Dikshita first gives. What I am trying to get at is the Pankti of Kaumari. What does Dikshita say? So he says first, he says Paratvat. Which he says, because it is a Parasutra. We can do. But Paratva is not a very valid reason here because generally Paratva is when there is a Vipratishetha, which means there is a generally Paratva is when there are two karyas which are applying for the same thing. Ekatraiva dvayoho viruddha karyayoho sambhave Vipratishethaha iti niyamaha, but that is not technically the correct definition. So there are other definitions of Vipratishetha, so okay. So after Paratva, he says, Nitya Anitya, Para Nityantaranga Pavadanam Uttarottaram Baliyaha. This is a standard paribhasha wherever we go to decide which sutra should apply first. So Para Nitya Antaranga and Apavada. Among these, Uttarottaram Baliyaha. Nitya is stronger than Para, Antaranga is stronger than Nitya, and Apavada is the strongest. This says Paratvat Nityatvacha Adav Gunaha. That is what Dikshita says. So how does Nityatva?
Anybody remembers? We had a huge discussion over it back in Engha Swatthamadhyaya. What is Nitya? Applies on this side. So, Kritakrita Prasangi Shastram Nityam. So, Krite Akrite Cha Shastram Pravartate, that Nitya Shastram. So, if there are two sutras, if one sutra applies either before applying the other sutra or applying the other sutra, and if the other sutra cannot apply once this sutra has been applied, in that case one is called Nitya and the other is called Anitya. Right. So, how do we do the Nitya Nitya Bhava here? That's the question. Because, okay, if here we are doing Hrasvasya Gunaha first, right? Adho Hrasvasya Gunaha Ittanena Gunaha Kriyate Gune Krute Eng Hrasvat Sambuddhe Ittanena Sambuddhi Lopo Bhavati. If we do Eng Hrasvat Sambuddhe first, then also I said, using Pratyaya Lope Pratyaya Lakshanam, we can still do the Guna. So, how do we manage with Nitya Anitya here? My question clear? Nitya Anitya is where there are two sutras, Sutra A and Sutra B. If Sutra A applies first, then Sutra B applies. Or even if Sutra A is not applied, then also Sutra B can apply. But Sutra A cannot apply if B has been applied. So that is the condition where we do Nitya and Anitya. So, but that does not seem to be the case here, because Hrasvasya Gunaha iti ekam sutram, Eng Hrasvat Sambuddhehe iti aparam sutram. Hrasvasya Gunaha iti nena gune krute, Eng Hrasvat Sambuddhehe iti sambuddhi lopo bhavati. Adav sambuddhi lope krute api, Pratyaya Lakshanena Hrasvasya Gunaha iti gunaha bhavati. So, how are we saying Hrasvasya Gunaha iti nitya and Eng Hrasvat Sambuddhehe iti nitya? To matter. I mean, you cannot say that it does not matter, because it cannot be called Nitya Anitya unless it is and yeah, I'm thinking about what the Hema said about the Varnad Angam Baliyaha. That will not apply here. We cannot apply that paribhasha here. Why? Because this is not a Varna Karya. Eng Hrasvat Sambuddhehe is not a Varna Karya. Though Hrasvasya Gunaha is Anga Karya, this is not exactly a Varna Karya, I think. It is not. Hema is saying, because Eng Hrasvat Sambuddhehe applies only for Sambuddhi and Guna will happen always. No, that is not how we define Nitya Anitya. It's only with relation to each other. It is not which is a general sutra and which is a specific sutra. Nitya Anitya is always with respect to two sutras. Right? So, if this sutra applies and the other cannot apply, then it is called Anitya. That is all. There is no other definition for this Nitya. Para Nitya Antaranga Apavadana. It is Krita Krita Prasangi Shastram Nitya. If you can, please go back to our discussions on Eng Hrasvat Sambuddhehe. And we will see this in the next class. Okay. We'll just go through those discussions and see why or what is the thing here. Okay. So we will move on now. Assuming that Paratvat Nityatvacha, since it's a Parasutra and a Nitya Sutra, more importantly, Hasvasya Gunaha will apply first. So we do Guna and then we use Eng Hasva Sambuddhyaha to do Lopa. We have He Shambho. He Shambho, He Shambhu, He Shambhavaha. Shambhu Am. Atra Kim Bhavati? Shambhu Am, it is wherever we have Am, it is Ami Purvaha. Am Prataye Parataha, Purva Rupam Bhavati, Shambhum. Ramam, Harim, Shambhum, wherever we go, it's the same case. Shambhum, Shambhu, Shambhu, Shas. Shas Prataye Pare, Kim Bhavati. Not Ekas Prathma, Ekas Pura Prayanku. What is the Sutta? It's not, I mean, it's not Ekas Pura Prayanku. It is Prathamayo Purva Savarnaha. It's an Ena Purva Savarna Dirkaha. Shas ityatra shakarasya lashakva tadhite ityanena ityamya tasya lopaha. Prathamayoha purva savarnaha. Since this is still dvitiya vibhakti, in prathama and dvitiya vibhakti, if the ak is followed by an aj, we have purva savarna dirtha. Ukarasya savarna dirtha shambhus. Nani mrutva visargayoha praptayoha tad badhitva asmat chasonah kumsi ityanena. Sakara sisthane nakara adeshaha. The sakara of shas is replaced by nakara, so it becomes shambhun. Shambhum, shambhu, shambhun. Okay, next. Dvitiya vibhakto ta pratyaha. Shambhu a kim bhavati. Anganastriyam. What are the conditions for Anganastriyam to apply? What is the prerequisite? Right. Sheshokhya Sakhi. Ghisamya. Ghisamyakatarasya Angaha. Namata ityasya. Na ityadesho bhavati. So if there is a ta pratyaya which follows a particle with ghi samya, then we get adesha, na adesha for it. So for ghi samya, we use the sutra, sheshu ghi asakhi. Anadi samyo hrasvo yav ivarna uvarna tadantam sakhivadyam ghi samyam syad. This is sutra. So there should not be nadi samya. So there is no nadi samya here. Hrasvo yav ivarna uvarna. And if it's a hrasva ikara or ukara, it will get ghi. So adav sheshobhya sakhi. Iti sutena ghi iti samya bhavati shampu ityasya. Ghi samyayam satyam anga nastriyam. Iti sutrena ayatyasya nadeshe shambhuna. Shambhuna shambhubhyam shambhubhihi. Shambhubhi kardyam nastri. Shambhubhyam ityasya kriyopi nastyeva. Shambhubhihi ityasya rukum visargaha. Shambhuna, Shambhubhyam, Shambhubhiti, Shambhu, Nye. Chaturthyeka vachane, Nye, Prattayaha, Nakarasya, Nashakvatathitaiti, Samya, Lope, Shambhu, E. Atra kim bhavati. Here is the name of Kim Bhavati.
घेर्णीति इत्यनेन गुणः क्रियते इति प्रत्यये परतः घि सम्यकस्य गुणो भवति इत्यर्थः. अवादेशः एचोयवायामः इत्यनेन अवादेशः ओकारस्थाने अवादेशः शम्भो घेर्निति इत्यनेन नितिप्रत्यये परतः घेः गुणो भवति गुणे कृते शम्भो एचोयवायामः इत्यनेन अवादेशे शम्भवे इति रूपम् शम्भवे शम्भुभ्यां शम्भुभ्यः नसि प्रत्ययः पञ्चम्येकवचने अथवा षष्ठ्येकवचने नस् प्रत्ययः उभयथापि अस् इत्येव शिष्यते शम्भु अस् इत्यस्ति अत्र पुनः घेर्णिति इत्यनेन गुणः ङित् प्रत्यय फोर् घेर्णिति टु अप्लै द कण्डीशन् प्रत्ययः इति ङित् दिस् इस् ङित् यु हाव् घेर्मिति अप्लैङ्ग् टु गिव् ओकार शम्भो अस् पुनः अत्रापि अवादेशे प्राप्ते नथिङ्ग् अस्पष्ट इति गुणः सोरि इति पूर्वरूपं घिसम्यकात् नथिङ्ग् असोः सोरि एङन्तात् नथिङ्ग् असोः अतिपरे वेन् यु हाव् एन् एङ् लेटर् इट् इस् फालोड् बै एन् अकार अथवा अकार आफ् नथिङ्ग् असोः नसि एण्ड् नस् तदा पूर्वरूपं भवति पूर्वरूप उद्वयन् आदेश ओ एण्ड् अ विल् बि रिप्लेस्ड् बै ओ यु हाव् शम्भोस् ऋत्वे विसर्गे शम्भोः खलु ऋत्वा एण्ड् विसर्ग इति शम्भोः शम्भु ओ शम्भोः शम्भुभ्यां शम्भुस्थः पुनः शम्भोः षष्ठीद्विवचने ओस् प्रत्ययः शम्भु ओस् अत्र किं भवति अच्छेः किम् ओस् नो को एणसि इत्यनेन यणादेशः शम्भोस् इत्युक्ते को एणसि इत्यनेन यदि शम्भोस् इति उकारस्थाने उकारादेशः ऋत्वं विसर्गः शम्भोः 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 शम्भु आम् नद्यापो नुट् इत्यनेन नुडागमः तस्मान्तात् नद्यन्तात् आबन्ताच्चाङ्गात् परस्य आमः नुडागमः स्यात् इफ् आम् इस् प्रिसीडेड् बै ह्रस्व आर् नदी आर् आबन्त आङ्गात् देन् इट् इस् इट् विल् गेट् अ नुट् आगम द आगम विल् बि फार् द आदि अद्यन्तौ टचितौ इत्यनेन आमः आदौ मकारागमः शम्भु नु आम् भवति ततः नामि इति दीर्घः नामि परे अदन्ताङ्गस्य दीर्घः स्यात् इत्यनेन दीर्घे शम्भूनां विल् अट् कृत्वाङ्गं निर्माय इति अप्लै किल can we apply atkupangam vivayati we did in ramana we also did in harina which we will not apply here why
opposite. So there is no nimitta. It is refer, dashabhyam. Nonaha. So nakara will be converted to nakara only if there is a repha or a shakara. So there is neither repha nor a shakara here. Since there is no nimitta at all, natva cannot happen. So it is shambhunam. Idanim shambhu I. Saptamyekavachane ni prataye shambhu I iti sthite. Atra vachakehe iti sutram pravartate. Kortaha. What will happen by vachakehe? प्रत्यय स्थाने औकारादेश औट इत्यनेन अनुवृत्तिः तत्र मी प्रिपेयर्ड बाय औट एंड घे है अत द हि सम्यक् द प्रातिपदिका विल गेट एन अकार एज एन अंतादेश सो इट बिकम शंभ एंड औ एक्चुअली दिस हैज टू बी डन इन टू स्टेप्स यू अप्लाई द सेम सूत्र ट्वाइस एंड डू द कार्य बट हियर आउट ऑफ माय लेजीनेस आई जस्ट पुट इट कंबाइंड दिस प्लीज डोंट प्लीज यूज इट ट्वाइस The Shambha and Au. In first step, the Ni gets converted to, in one step, the Ni is converted to Au, and in the other, the U is converted to Akara. Shambha Au. Achaghehe, iti sutrayana. Tadaha Vridhirechi, iti Vridhau, Shambhau. Shambhau, Shambhuoho, Shambhu, Suppa. What will happen here? So, Adesha Pratyaya Yohu. It is Uttam. So, In Kavargabhyam Parasya. So, since the previous letter is In, the Ugara belongs to In. तो इन कवर बगाभ्याम परस्य सकारस्य स्थाने शकारः सो अस्य सकारस्य स्थाने शकारः शंभु शु आदेश प्रत्ययोः इत्यनेन शत्रु शंभौ शंभोः शंभुषु एवं विष्णु वायु भान्वादयः सो एनी उकारांत पुल्लिंग एनी उकारांत अप्लाइज ब्लैंकेट तो 99.9% There is only one shabda which varies a bit. So then that all Ukaranta Pullingas will have formed like Shambhu Shabda, which is in turn like Hari Shabda. The Prakriya goes like Shambhu Shabda. So Rupani to Sarve Jananti, I hope. Ukaranta Pullinga, there is nothing to be highlighted well, if you know Hari Shabda. Right? Hari Shabda Gyate Atra Kopi Visheshaha Nasti. Now, in Ukarantas, there is only one Shabda which varies a bit. Okay? All Ukarantas are like this. They go like Sadharana Shabda. There are very few exceptions. I mean, there is only one exception. Ukarantaha Pullingaha Kroshtu Shabdaha. There is a word called Kroshtu. Kroshtu means a jackal. Okay. Shrigalaha Ityarthaha Kroshtu Shabdasya. There are actually two words. One is Kroshtu, which is Ukaranta. And the other is Kroshtru, which is Rukaranta. उकारान्तः पुल्लिङ्गः एकः शब्दः ऋकारान्तः पुल्लिङ्गः अपरः बोथ् आफ् देम् मीन् द सेम् सो एक्चुलि द क्रोष्टु शब्द शुड् हेव् फार्म्स् लैक् शम्पु एण्ड् द ऋकारान्त शुड् हेव् फार्म्स् लैक् पितृ और् धातृ और् समथिङ्ग्
But you see that that is not the case. It's a very all this it is not because of a sutra. There is a there are very based on the prayoga. Okay, it is seen that even though this is ukaranta, the ukaranta word has prayoga only in some vibhaktis. Okay, in some vibhaktis you hear only the rikaranta forms, which simply means, I mean, in our terms, it means that the ukaranta does not have a prayoga. There has been no prayoga of the ukaranta form in some vibhaktis. Okay? But you cannot say that. You cannot tell that a word cannot have a form in some vibhakti. I mean, that is generally not done. So what Panini does is, he simply converts the ukaranta to rukaranta in some cases. He says, in certain vibhaktis, the ukaranta will behave like rikaranta. It will have forms like rikaranta. Which means for this shabda, when you take it as a whole, there are some vibhaktis where you hear only the rikaranta forms, and there are some where you hear both ukaranta and rikaranta forms, and there are some in which here you hear only the ukaranta forms. So before that, a bit into the Bala Manorama, you see how the two forms are divided, the ukaranta and rikaranta. तो बालमनोरमायां त्रिज्वत क्रोष्टु इति प्रतीका प्राक्त तो वंस ही फिनिशेस एवं विष्णुवायु भानमादयः ही गोज़ ऑन टू द नेक्स्ट शब्द एंड सेज कृष आह्वाने रोदने च इति धातोः सो कृष इज अ धातु इट इज अ भवादि परस्मैपदी एंड अनिट क्रोशति आक्रोशः आर ऑल वर्ड्स फ्रॉम दिस धातु सो अस्य धातोः सीता निगा मीमा सिस चवि धाय कृषिभ्यः तुन इति तुन प्रत्ययः इदम् उणादि सूत्रम् इस सूत्र विच बिलोंग्स टू द उणादि नॉट अ सूत्र ऑफ द अष्टाध्यायी सो अनेन सूत्रेण तुन इति प्रत्ययः क्रियते प्रत्यय कॉल्ड तुन वेर द तु रिमेन्स इन द नकार गेट्स इट्स संज्ञा सो यू हैव कृष एंड तु इत्युक्ते तस्य शकारस्य तालव्य शकारस्य स्थाने ऋष्टभस्य सृजमृजराज यजराजभ्राजच्छषां क्षः इति सूत्रेण शक्तं भवति दो तालव्यशकार इस कन्वर्टेड टू मूर्धन्य शकार द श इस कन्वर्टेड टू श सो यू नौ हैव कृष तु पुगन्तलघुपदस्य च इत्यनेन उपधागुणे क्रोष तु इत्यस्ति ष्टुनाष्टुः इत्यनेन तकारस्य स्थाने टकारे क्रोष्टु इति उकारान्तः पुल्लिङ्गः सो दिस् इस् हौ द क्रोष्टु इस् डिरैव्ड् फ्रोम् द उणादि तुन् प्रत्यय हौ कृष धातोः विच् इस् नाट् कृष धातु इट् इस् द सेम् कृष धातु दिस् इस् मै मिस्टेक् इट् हेस् टु बि कृष धातोः कर्तरि तृचि दर् इस् अ जनरल् सूत्र इट् इस् नूल् तृचौ फोर् आल् धातूस् इन् कर्तर्थ यु हव् नूल् अण्ड् यु हव् तृच् फोर् एक्साम्पल् कृ इट् बिकम्स् कर्तृ thru becomes hartru or anything pa pachu becomes paktru you have the forms dha becomes dhatru same so similarly you have a trich pratyaya which is a normal pratyaya from the ashtadhyayi so if you do trich it becomes kroshtru krush tru ityasti laghu pada gune krosh tru same rashtabhrasya itenena shakarasya sthane shakarah ष्टुनाष्टुः इत्यनेन गुणे क्रोष्टृ सो यु हेव् अ ऋकारान्त प्रातिपदिका एण्ड् यु हेव् एन् उकारान्त प्रातिपदिका द्वावपि शृगालवाचिनौ बोत् वर्ड्स् इण्डिकेट् जाकल् शृगालः अजाकल् द्वावपि शृगालवाचिनौ इदानीं यु हेव् यु आर् डीलिङ्ग् वित् उकारान्त सो यु हेव् उकारान्त पुल्लिङ्ग क्रोष्टशब्दः सो हौ विल् द फार्म्स् बी त्रिज्वत् क्रोष्टुः इति सूत्रम् पदद्वयं त्रिज्वत् क्रोष्टुः इति भवति इतोत् सर्वनामस्थाने इति सूत्रात् सर्वनामस्थाने इति अनुवर्तते चक्षुरसम्बुद्धौ इत्यतः असम्बुद्धौ असम्बुद्धौ सर्वनामस्थाने परे सो वेन् फालोड् बै अ सर्वनामस्थानप्रत्यय वाट् ईस् सर्वनामस्थान सर्वनामस्थानम् शी सर्वनामस्थानं करेक्ट् बट् वेर् इस् द शी हियर्
Is that the only sutra which gives Tadanavasthana? That is Sarvanama. For Sarvanamasthana. Sut Anapumsakasya.
You are correct.
She is Sarvanamasthana for Napumsakalinga. For Anapumsaka, if it is not Napumsakalinga, it is Sut. Su out this, am out. The first five vibhaktis are called Sarvanamasthana. So, Asambuddhau Sarvanamasthane Pare. When followed by a Sarvanamasthana other than Sambuddhi. It is when followed by Su out this, am and out. Kroshtuhu Trizvata. Kroshtu, Ukaranta. The Ukaranta Pratipadika, which is Kroshtu, it behaves Trijvat, like the Trijanta. Kroshtuhu Trijantena Tulyam Vartate, Asambuddhau Sarvanamasthane Pare. And what does it mean by being Tulya? What does it mean? It is equal to Trijanta. Kroshtu Shabdasya Sthane, Kroshtr Shabdaha Prayoktavyaha Ityartha. It means you replace the Ukaranta with the Rukaranta. Kroshtu is replaced by Kroshtru. So we have in when followed by Sarvanamasthana Pratyas, the Ukaranta becomes like Rukaranta. So it will have forms like a Rukaranta. So now you have Kroshtu Ityasmat Supratyaya, Trijvat Kroshtuhu Iti Trijvat Bhave, Kroshtru Su Ityasthi. It becomes Rukaranta. So Rukarante Kim Bhavet. So we have not seen Rukaranta so far. It comes ahead. So we are actually learning Rukaranta Prakriya before we actually move into Rukaranta. Here itself. So Kroshtru Su Ityasthi. Kim Bhavet Atra. Okay. Ruto Ni Sarvanamasthanyohu. Iti Sutram Vidyate. Sutra Rutaha Nama Rukarantasya Rutu. Taparakaranam Taparastatkalasya Ityanena Hraswarakarasya Ityartha Ni Sarvanamasthanayoho. So when followed by Ni Pratyaya or when followed by Sarvanamasthana Pratyaya Kim Bhavati Hraswasya Gunaha Ityanena Gunaha Ityanuvartate Angadhikaraha Angasya Tithikaro Vidyata Eva. What do we have here? Ngau Sarvanamasthane cha pare. So when followed by Ni or Sarvanamasthana, Ridantangasya Gunaha Syat. An Anga which is ending in Hrasva Rukara will get Guna. Rukarasya Gunaha. Ityukte Kim Bhavati. What is Guna for Rukara? Ar. Katham Ar iti. How do you say that Ar is Guna for Rukara? Ar is not Guna. Ar does not have Guna Samya. Ar ityasya Guna Samya nasti. Kevalasya Akarasya Guna Samya asti. Adeng Guna. Rasvakara, Dirgha Ekara, Dirgha Okaranam Guna iti Samya. Purandrapaha. Rukarasya sthane yaha anna. Saha raparaha bhavati. So the guna is actually akara. Repasya gunaha akara eva. Hintu uran raparaha ityanena repaparaha akaraha bhavati. Tena ar iti bhavet. Ngau sarvanamasthane cha pare ridantangasya gunaha syat. Ityanena rukarasya gunaha praapnoti. Iti praapte. So actually you can apply it here. Since it is sarvanamasthana, anena gune praapte. Actually do guna using the sutra, but Rudushana Spurudam so nehasancha iti aparam sutram. Padadvayam Rit Ushana Spurudam sas anehas iti trini padani. So these are three words which are specified. So for these three words and Rit for Rukarantas, Rasvarakarantas Kim Bhavati Sakhira Sambuddhau Sambuddhau iti anumartate. Anang sau, ityataha purnam anuvartate. Sau anang, sau nama supratyaye pare, anang, anang ityadeshaha bhavati, asambuddhau sau, asambuddhau supratyaye parataha, ridantanam, ushanasprudamsas anehas, etesham shabdanam cha, anang ityadesho bhavati.
where did we use anangsau? We have already studied the sutra. Where is anangsau used? So sakhi shabde, everybody remembers. So sakhi shabde anangadesha kritah atrapi bhavati. So ridantanam ushanasadinam cha. So for ridantas and words ushanas etc. anang syat, there will be an adesha called anang. Asambuddhau sau pare, it is followed by su. So generally if it's sarvanamasthana you have guna, but if it is supratyaya, we have anang as the adesha. Kroshtru su ityasti anang ityadeshaha ngitvat, since angakara is it ngitcha ityayana antadeshaha, the rukara is replaced by an. So kroshtan su ite bhavati ridushanaskurudam soneha sancha ityanena anangadeshaha ngitcha ityanena antadesha bhavati rukarasya sthane an ityadeshaha kroshtan. इदानीं किं भवेत्? पुनः नूतनं सूत्रम् अप्रन्द्रित् स्वस्त्र नप्र नेष्ट्र त्वष्ट्र क्षत्र पोत्र पोत्र प्रशास्त्रणाम् सूत्रम्. सो actually what happened in sakhi shabda, anybody remembers? Once you do sakhan su, what did we do? Anantyal purvopadhadi samya sutram, but we cannot do a dirgha by that. Says upadha is the, what did we do? Karya. Sarvanamasthane cha. Mantasya upadhayaha dirghaha syat asambuddhau sarvanamasthane pare. So if it's an akaranta anga, when it is followed by a sarvanamasthana which is not sambuddhi, it gets dirgha. So actually here we can apply sarvanamasthane cha asambuddhau. But if we apply sarvanamasthane sasambuddhau, that would apply only for nakarantas. So here, since we did anang, we have nakaranta, we can do sarvanamasthane sasambuddhau. But what happens in other, au and this? There is no anang, because this is sau. So we go back to the previous sutra and we do guna. Ridushanaspurudam, sorry, ritongi sarvanamasthane yohu ittenena gunaha kriyate. Gunaha kriyate chet ar iti gunaha. Hello. Can't you hear me? Ha, exactly. Are you able to hear me? You are able to hear me, no? Right, so we can do it here, but when we do the guna, it becomes kroshtar, right? Rakarasya gune arriti bhavati. Then we will not be able to do dirgha by sarvanamasthane cha sambuddho, since there is no nakaranta. So Panini wants a general sutra which will apply everywhere. If you remember the rakaranta rupas, dhata, dhatarau, dhataraha, dhataram, dhatarau, in all five you hear the dirgha. So for that dirgha, even though the sarvanamasthane cha sambuddho can apply here, it will not be able to apply in the next sutras. That is why he creates another sutra specifically up trin trich swasra swasra naptra neshtra tvashtra kshatra hotra potra prashastrana. So sutra ekameva padam up nama apshabdaha apaha jalam ityarthaha trin iti pratyaha trinnantaha त्रिच इत्यपि प्रत्ययः त्रिजन्तः एंड देन ही लिस्ट्स दीज वर्ड्स स्वस्र नप्त्र नेष्ट्र त्वष्ट्र क्षत्र होत्र ओत्र प्रशास्त्र फॉर दीज वर्ड्स. ओके, सो ढलोपे पूर्वस्य दीर्घोणः इत्यतः दीर्घः इति अनुवर्तते, नोपधायाः इत्यतः उपधायाः इति अनुवर्तते, सर्वनामस्थाने च सम्बुद्धौ. इट इस द सेम सूत्र विच इज गेटिंग अनुवृत्ति हियर. सो सम्बुद्धौ सर्वनामस्थाने परे, उपधायाः दीर्घः. सो दिस इट इज नॉट मैंडेटरी दैट इट शुड बी अ नकारांत फॉर एनीथिंग. फॉर इफ दीज आर द वर्ड्स द उपधा विल गेट दीर्घ. अबादीनाम् अप् इत्यादीनाम् उपधायाः दीर्घः स्यात्. वाट् एवर् द एण्डिङ्ग् लेटर् द उपधा विल् गेट् दीर्घ. असम्बुद्धौ सर्वनामस्थाने परे. सिन्स् दिस् इस् अ परसूत्र एण्ड् अ मोर् स्पेसिफिक् सूत्र, वि अप्लै दिस् इन्स्टेड् आफ़् सर्वनामस्थाने च असम्बुद्धौ. दिस् बिलाङ्ग्स् टु त्रिच् इस् ए त्रिज्वत्. सो वि आर् नौ डूयिङ्ग् फार्म्स् लैक् ए त्रिजन्त्. दिस् इस् त्रिजन्त. वि अप्लै अप्त्रन् त्रिच् इत्यादिना उपधा दीर्घः. क्रोष्टन् स् इत्यस्ति उपधा. अलोन्त्यात् पूर्व उपधा. अन्त्यादलः पूर्वो वर्णः. द लेटर् विच् कम्स् बिफोर् द लास्ट् लेटर् इस् काल्ड् उपधा. सो अलोन्त्यात् पूर्व उपधा इत्यनेन उपधासंज्ञायाम् अप्तृन्तृच् इत्यादिना उपधादीर्घे क्रोष्टान् स् इति भवति. क्रोष्टान् स् इत्यनेन उपधादीर्घे हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन सुलोपः. यु हाव् नकार विच् इस् अ हल्. हलन्तात् ण्यन्तात् आबन्तात् हलन्तात् दीर्घव्यौ ज्ञापौ तदन्ताच्च परं सूतीसि इत्येतत् अपृक्तं हल् लुप्यते. यु हाव् स् विच् इस् अपृक्त बै अपृक्त एकाल् प्रत्ययः. And there is a hal anta, so the su gets deleted by halyabhyo dirghatsya praktam hal. Then nakarasya api nalopah pratipadika antasya. Pratipadika samyakam yat padam. Tadantasya nakarasya lopahasyat. Ityanena nakara lope kroshta. So this is what happens in all rukara antas. If you have pita, it's the same pratriya. Dhata, it is the same pratriya. सो ऋदुषणस्पुरुदं सोनेहसां च इत्यनेन अनङादेशः अप्तृन्तृच् इत्यादिना उपधादीर्घः ततः सुलोपः न लोपः इति प्रक्रिया. देयर् इस् अ क्वश्चन् रविचन्द्रन्जी, वै इफ् यु आल्वेस् डू अनङ् दीर्घ वोण्ट् हेपन्. दीर्घ विल् हेपन् ओन्लि इन् सुप्रत्यय, बिकास् इट्स् ओन्लि इन् द सुप्रत्यय वि गेट् अनङ्. We will not be able to do the dirgha in au, just am and au, au just and am. So for that Panini creates the sutra, whether it is au, in all sarvanamasthanas it needs the dirgha, even if it is not nakaranta. Okay? That is why he created aptrantrich. Now in su pratyaya we have a choice, should we use sarvanamasthane cha sambuddhau or should we use aptrantrich? That is the question. So when we have the question, we use the Parasutra, which happens to be Aptrantrich, and do the Dirgha here also. Actually, what we could have done is, we can do here, we can manage with Sarvanamasthane cha Sambuddhau. For later cases, we have this special Sutra. So since this Sutra can also apply here, we apply the same thing everywhere. Okay. So, any other questions? There is something more to this sutra which we will see in the next class. So far, Bhanuprakash ji, Kharanama Nutana Samvatsarasya Shubhashayaha. Dhanyavadaha Sarvebhyaha. I think a few of you are still too. Get into the new samvatsara, which we are already in it. So, Nutana samvatsarasya shubhashayaha. So, we'll stop here, and the next class is tomorrow. So, we'll continue tomorrow with the Kroshta Shabda, okay, and the sutra. Henachara samam nayam adhivandya maheshwaraan tisgam vyakaranam pukkam tasmai paninaye namaha. मुनित्रयं नमस्कृत्य तदुक्तीः परिभाषित वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.